यौर्णयिम् राभिभूभार्यस्तस्थौ रयस्तवसा मृत्सुजनान् तन्नः सहस्रभरमुर्वरासाम् दद्धिसो नो नहतो वृत्तरम् दिवो न तभ्यमन्विन्द्रभत्रा सूर्यम् देवेभिर्धायि विश्वम् अयम् यद्रत्रमपोपव्रिवान् सम्भन्द्रे जेषन् विष्णो नादानः पूर्वन्नो जीयान् अवसस्तवीयान् ब्रह्मेन्द्रो वृद्धमाः राजा भवन्मधुरः सोम्यस्य विश्वासाम्य पुरान् धर्तुमावत् शतैरभद्रन् प्रणय इन्द्रात्रसो नये कवलेर्कसातौ वधैः सुष्णस्य दृढस्य मायाः पित्को नारीरे धीर्त्यञ्जन प्र महोद्रुहो अप विश्वायुधा जिवज्रस्य यत्पदा देवादिरुष्णाः पूर्णतरसंसाराधये करिन्धः कुत्साय सूर्यस्य भासौ ेनोनमाधिरमम् सुमस्मै शिरो दासस्य नमो जयर्मधायन् प्रावन्नमीम् साभ्यम् ससन्तम् मृणग्राजा समिषासम् स्वस्ति द्विविप्रोरहीमायस्य दृढाः पुरो वज्रम् श्रवसानदर्दः सुरामन्दद्रेग्नो अप्रभृष्यभृजस्वे दात्रम् दासुषेदाः स वेदसम् दशमायम् दशो निन्दो तु जमिन्द्रस्वभिष्टिसुम् नः आदग्रंसस्वदिभम् ज्योतनाय मातुर्नसीमुपसृजायध्यै स जीम् श्रुधो मनते अप्रातीतो बिभ्रद्वज्रम् रत्रहणम् गभस्थौ तिष्ठद्धरि अध्यस्ते भगत्ते वचो युजा महत इन्द्र विश्वम् तदेमदेव सानव्या इन्द्रप्रभूरवस्तवन्तजेना यज्ञैः सप्तयत्पुरःसर्वसारधीर्दर्धन्दासेः पुरुकुत्साय शिक्षन् संमृध इन्द्रपूर्व्यो भोर्वलिभस्यन्नुशने काव्याय परानवास्त्वमनुदेयम् महेमित्रेदाधस्वन्नपादम् त्वन्धुनीरिन्द्रधुनीमदेर्णोरवशीरानस्रवन्तीः प्रयच्छ मुद्रमदीसूरपर्षि पादया दुर्वसंयगम् स्वस्ति तव हत्यरिन्द्रविश्वमायौ सहस्रौ धुनी च भूरीयाघशिष्वभिर्दीदयदिग्भ्यम् सोमे सन्दन्दभीतिरत्नभेदः पथ्या अर्कैः